प्रियाः श्रोतारः, संस्कृत साप्ताहिक्याः अंकेऽस्मिन् भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। भवतां सहृदयानां मनोविनोदकरम् अंकम् आदाय उपस्थितोऽस्मि अहं दिव्यानन्द झाः। अयि सुधियः श्रोतारः, कार्यक्रमस्य शुभारम्भः सुभाषित रत्नेन क्रियते। अद्य उद्यमपरकं सुभाषितं प्रस्तौति मम सहयोगिनी ऋचा झाः। श्रूयताम् भवद्भिः।
उद्यमो मित्रवत् ग्राह्यः, प्रमादम् शत्रुवत् त्यजेत्। उद्यमेन परा सिद्धिः, प्रमादेन क्षयो भवेत्। अर्थात् उद्यम से परम सिद्धि मिलती है तथा प्रमाद से क्षय प्राप्त होता है। इसलिए उद्यम को मित्र की तरह ग्रहण करना चाहिए और प्रमाद को शत्रु की तरह त्याग दिया जाना चाहिए।
मित्राणि, सम्प्रति अग्रे सरामः प्रसंग प्रभागं प्रति। अद्य अस्मदीया सहयोगिनी साधना शर्मा सुमधुरेण स्वरेण प्रस्तौति वट सावित्री स्तोत्रम्।
श्री वट सावित्री स्तोत्रम्। पद्मपत्र समासीनं ब्रह्माणं च चतुर्मुखं उपवीतधरं देवं साक्षसूत्र कमण्डलुं वामोत्संगता तस्य सावित्री ब्रह्मणः प्रिया आदित्यवर्णां धर्मज्ञा साक्षमालाकरां तथा धर्मराजं पितृपतिं भूतानां कर्म साक्षिणं कालदण्डधरं देवं महिषारूढमेव च। चिन्तयामि च देवेश सर्वप्राणिहिताय वैवीणां दधानं देवर्षि नारदं चिन्तयाम्यहम्। सावित्री ब्रह्म गायत्री सर्वदा प्रियभाषिणी, तेन सत्येन मां पाहि दुःख संसार सागरात्। त्वं गौरी, त्वं शची लक्ष्मी, त्वं प्रभाचन्द्रमण्डले, त्वमेव च जगन्मातस्त्वम् उत्तर वरानने। यन्मया दुष्कृतं सर्व कृतं जन्म शतैरपि, भस्मी भवतु तत्सर्वम् अवैधव्यं च देहि मे। अवियोगो यथा देव सावित्र्या सहितस्य ते, अवियोगस्तथास्माकं भूयाज्जन्मनि जन्मनि। सावित्री च प्रसावित्री सततं ब्रह्मणः प्रिये, पूजितासि द्विजैः सर्वैस्त्रिभिर्मुनिगुणैस्तथा। त्रिसन्ध्यं देवि भूतानां वन्दनीया सुशोभने, मया दत्ता च पूजेयं त्वं गृहाण नमोऽस्तु ते।
अयि जागरूकाः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। अद्य अशेष जगतः साप्ताहिकीः वार्ताः आदाय उपस्थितास्ति निधि झाः।
प्रधानमन्त्री नरेन्द्र मोदी पञ्चदेशानां यात्रां करोति। प्रधानमन्त्रिणः विदेश यात्राक्रमे यूरोपस्य पञ्चदेशाः सन्ति सम्मिलिताः। वैश्विक अनिश्चिततायाः, आर्थिक समाह्वानानां च मध्ये ब्रिक्स देशाः रचनात्मिकां भूमिकां निर्वहन्ति इति भारतेन दृढतया प्रतिपादितम्। नवदिल्ल्यां गुरुवासरात् द्विदिवसीय ब्रिक्स विदेशमन्त्रिणां सम्मेलनस्य आरम्भः अभवत्। आर्थिक विषयिकया मन्त्रिपरिषत् समित्या अस्मै विपणन सत्राय चतुर्दश ग्रैष्मिक सस्यानां MSP ति न्यूनतम समर्थन मूल्यानि वर्धयितुम् अनुमोदितम्। नवदिल्ल्यां केन्द्रीय मन्त्रिसभायाः अनन्तरं प्रसार माध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवोचत् यत् अनेन निर्णयेन उत्पादकेभ्यः तेषाम् उत्पादानां कृते लाभप्रदं मूल्यं सुनिश्चितं भविष्यति इति। केन्द्रीयान्वेषण अभिकरणेन अस्य वर्षस्य राष्ट्रिय पात्रता सह प्रवेश परीक्षा NEET UG इत्यस्याः आयोजने प्रश्नपत्रम् अनधिकृत रीत्या बहिरागमन विषयम् आलक्ष्य प्रकरणं पञ्जीकृतम्। शिक्षा मन्त्रालयस्य उच्च शिक्षा विभागात् प्राप्तस्य लिखित परिवादस्याधारेण संस्थया एतत् प्रकरणं पञ्जीकृतम्। संस्थया संसूचितं यत् विशेषाणां केन्द्रीयान्वेषण अभिकरण दलानां निर्माणं जातं तथा च प्रकरणान्वेषणार्थं विभिन्नेषु स्थानेषु एतानि दलानि प्रेषितानि सन्ति।
अयि मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थिताः विद्यन्ते दिल्ली विश्वविद्यालयस्य जाकिर हुसैन महाविद्यालये सहायकाचार्य पदे वर्तमानाः संस्कृत संस्कृति सेवारताः श्रीमत्यः मनोरमा महाभागाः। सम्प्रति अस्मदीय सहयोगिना सुरेश चन्द शर्मणा साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान प्रवाहं प्रति मनोरमा महाभागानां विचारान्।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः। नमो नमः। प्रियाः सुरभारती समुपासकाः श्रोतारः, अतीव हर्षस्य विषयः यत् आकाशवाण्याम् अस्माभिः सह संवादाय अद्य विराजन्ते देहलीस्थे जाकिर हुसैन महाविद्यालये सहायकाचार्या डॉक्टर मनोरमा वर्यायाः हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहं सुरेश चंद शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च वर्तामहे।
सर्वेभ्यः सादरं प्रणमामि। आकाशवाण्यां ये ये कार्यकर्तारः सन्ति तेषां समेषामपि संस्कृतोत्सुकानां हार्दिकम् अभिनन्दनम्। येषां सहायेन संस्कृतस्य समाचारः रेडियो माध्यमेन प्रसार्यते। कार्यक्रमेऽस्मिन् संलग्नानां डॉक्टर सुरेश शर्मा वर्याणाम् अपि अभिनन्दनं करोमि।
मान्य महोदये, संवाद प्रभागस्य एतस्य प्रारम्भिके अंशे प्रश्नः यत् वेदान्तरूपेण ख्यापितेषु उपनिषत्सु तैत्तिरीयोपनिषद् महत्त्वपूर्णम् उपनिषद्, एतस्य विषये कृपया ज्ञापयन्तु।
तैत्तिरीयोपनिषदि वर्णितम् अन्तेवासिनं प्रति उपदेशम्। प्रमुखतमा एकादश उपनिषत्सु एका अस्ति तैत्तिरीयोपनिषद्, यस्याम् आचार्यः शिष्येभ्यः दीक्षान्त उपदेशं ददाति। यदा शिष्यानां विद्याध्ययनं पूर्णं भवति तदा गृहगमनसमये पाथेयरूपेण सः आचार्यः उपदिशति। अयम् उपदेशः तैत्तिरीयोपनिषदि शिक्षावल्यां वर्णितम् अस्ति।
सम्यक् महोदये, भवती उक्तवती प्रमुखतमः एकादश उपनिषदः, उपनिषद् संख्या विषये किञ्चित् स्पष्टतया ख्यापयन्तु।
एवं तु सामान्यरूपेण अष्टाधिक एकशतं संख्या अस्ति, किन्तु आदिगुरु शंकराचार्येण यासां भाष्यं कृतं तः एव प्रामाणिकतया इदानीं स्वीक्रियते। तासु ईश केन कठ प्रश्न मुंडक मांडुक्य ऐतरेय तैत्तिरीय बृहदारण्यक छांदोग्य श्वेताश्वतर मुख्यतमा तथा च प्रामाणिकरूपेण स्वीक्रियन्ते।
प्रामाणिकरूपेण स्वीक्रियन्ते, अत्र शिक्षावल्याम् आचार्यः उपदेशं ददाति, अतः आचार्यः इत्युक्ते किम् इति ज्ञापयन्तु।
अत्र आ उपसर्ग पूर्वक चर धातुः यत् प्रत्ययेन आचार्यः शब्दः निर्मीयते। निरुक्तकार यास्कः व्युत्पत्तिं करोति अस्य शब्दस्य। आचिनोति अर्थान् आचिनोति बुद्धिम् इति वा, अर्थात् यः वेदानाम् अर्थ संचयं करोति तथा च शिष्याणां बुद्धिं विकसति सः आचार्यः। आचरति इति आचार्यः, यः स्वयं श्रेष्ठतमम् आचरणं करोति सः आचार्यः। आचारं ग्राहयति च, आचरणस्य एव शिक्षां ददाति सः आचार्यः भवति।
उत्तमम्। अस्तु, इदानीम् उपदेश विषये विस्तरेण ख्यापयतु एवं चैतदुपास्यम् इति विषये।
तैत्तिरीयोपनिषदि शिक्षावल्याम् एकादश अनुवाकः। वेदमनुच्याचार्यो अन्तेवासिनम् अनुशास्ति, सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमार्हित्य प्रजातन्तुं मा व्यवच्छेत्सिः। सत्यान्न प्रमदितव्यं धर्मान्न प्रमदितव्यं कुशलान्न प्रमदितव्यं भूत्यै न प्रमदितव्यं स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यं देवपितृकार्याभ्यां न प्रमदितव्यं मातृदेवो भव पितृदेवो भव आचार्य देवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये के चास्मच्छ्रेयांसो ब्राह्मणः तेषां त्वयासनेन प्रश्वसितव्यं श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् भिया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्त विचिकित्सा वा स्यात् ये तत्र ब्राह्मणः सम्मर्षिणः युक्ता आयुक्ताः अलुक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम्।
एवं तु सर्वं स्पष्टमेव, किन्तु अत्र अन्तेवासिनं तथा च प्रजातन्तुं मा विवक्षेस्सि, अस्मिन् विषये सरलतया कृपया स्पष्टीकुर्वन्तु।
ओम्, प्राचीनकाले सर्वेपि गुरुकुले एव पठन्ति स्म। तत्र आचार्यस्य सान्निध्ये मार्गदर्शने ये छात्राः तत्रैव आवासं कृत्वा पठन्ति स्म, अतः ते अन्तेवासी इति नामधेयाः भवन्ति स्म। अत्र द्वितीया विभक्ति प्रयुज्य अन्तेवासिनं प्रयुक्तं। प्रजातन्तुं मा व्यवच्छेत्सि, यदा तत्र गुरुकुले शिष्याणाम् अध्ययनं पूर्णं भवति, गुरुकुलात् ते गृहं गच्छन्ति, गृहं गत्वा विवाह संस्कारम् अपि करिष्यन्ति एव। तदा गृहस्थधर्मस्य विषये अयम् उपदेशः अस्ति यत् सन्तान परम्पराम् स्वप्रजाम् च रक्षन्तु इति, अर्थात् पुत्रोत्पत्तेः लोपः न भवेत्।
आचार्य महोदये, भवत्याख्यापितैः शास्त्र विद्वद्वचोभिः वयं धन्याः अनुगृहीताः। एकवारं पुनः आकाशवाणी पक्षतः भवतीभ्यः हार्दाः धन्यवादाः, सादरं प्रणामाः, नमो नमः।
कार्यक्रमेऽस्मिन् उपस्थितेभ्यः सर्वेभ्यः सुहृज्जनेभ्यः हार्दिकं धन्यवादं व्याहरामि। नमो नमः, सादरं प्रणमामि। जयतु भारतं, जयतु संस्कृतं।
विद्वद्वराणां मनोरमा महाभागानां वचनानि श्रुत्वा जाताः वयं नितराम् आप्लाविताः। अयि संस्कृतप्रेमिणः, आगच्छन्तु संस्कृतदिग्दर्शिनी प्रभागे, यत्र विश्वस्मिन् अपि विश्वे संस्कृतसंवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी मुदिता वेतालः।
संस्कृत संस्कृति विकास संस्थानेन उत्तर प्रदेशस्थस्य श्री बाबूलाल महाविद्यालयस्य संयुक्त तत्वाधाने अन्ताराष्ट्रिय योग दिवसस्य अवसरे अन्ताराष्ट्रिया ई संगोष्ठी आयोजयिष्यते। जून मासस्य 20 दिनांके आयोजयिष्यमाणायाम् अस्याम् संगोष्ठ्याम् विकसित भारतस्य मूलाधारो योगः इति विषये परिचर्चा भविष्यति। उत्तर प्रदेशस्य वाराणसी स्थेन चातुर्वेद संस्कृत प्रचार संस्थानेन अथ च सांध्य अध्ययन विभाग हिमाचल प्रदेश विश्वविद्यालयेन NAS कॉलेज मेरठ इत्यनेन संयुक्त रूपेण मे मासस्य 13 दिनांके 11 राष्ट्रीय व्याख्यान गोष्ठी अंतर्जाल माध्यमेन आयोजिता, यत्र महाभारताधृते विषये परिचर्चा जाता। केंद्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे नवदिल्लीस्थस्य भारतीय दार्शनिक अनुसंधान परिषदः सौजन्येन 7-दिवसीया राष्ट्रिया कार्यशाला आयोज्यते। अस्याम् कार्यशालायाम् वैशेषिक पदार्थ व्यवस्थायाः पद्धति मूलक विमर्शः विषये चर्चा समाचरति। इयम् कार्यशाला गुरुवासरे मे 14 आरब्धा। धन्यवादः।
अयि सहृदयाः श्रोतारः, अद्य बालमनोवल्लरी प्रभागे शृणुमः साधुस्वभाव विषयिणीम् ज्ञानवर्धिनीम् कथामेकाम्। ताञ्च रुचिकर शैल्या प्रस्तौति अस्मदीया सहयोगिनी सुषमा कुमारी।
बालाः, अद्यस्तनीये बाल मनोवल्लरी संस्करणे अहम् साधु स्वभावः इत्यस्मिन् विषयम् आधृत्य एकाम् कथाम् श्रावयिष्यामि। एकस्मिन् उपवने स्थिताः आम्रवृक्षाः परस्परम् वार्तालापम् कुर्वन्तः आसन्, यत् मनुष्याः तेषाम् पक्वानि फलानि त्रोटयित्वा नयन्ति, परन्तु कृतज्ञतायाः
एकम् अपि शब्दम् तान् प्रति नैव कथयन्ति। अहो तेषाम् इमाम् कृतघ्नताम् धिक् धिक् वृक्षाणाम् समीपतः निस्सरन् कश्चित् पथिकः तेषाम् इमाम् वार्ताम् श्रुतवान्। किञ्चित् तत्र स्थित्वा च तान् अब्रवीत्, अस्मिन् भवद्भ्यः कृतज्ञतायाः प्रकाशनस्य का वार्ता? भवताम् स्वभावः फलोत्पादनम्, तद् भवद्भिः क्रियते, करिष्यते अपि च एव। इयम् भवदीया विवशता, पुनः विवशतायाः लाभम् कः न गृह्णाति इति कथयित्वा सः अग्रे प्रस्थितः। इति साधुः स्वप्रकृतेस्त्यागम् कुरुते न कदाचन, एतद् वैवश्यस्तस्य लाभम् गृह्णाति को नहि। अर्थात सज्जन अपनी प्रकृति का त्याग नहीं करता है और उसका विवशता से लाभ को नहीं लेता है।
साधु मनोहरा ज्ञानवर्धनी च कथा। मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकम् भारतम् श्रेष्ठम् भारतम् इति, यत्र अस्मदीयः सहयोगी ललित मोहन तिवारी प्रस्तौति राष्ट्रियैक्यद्योतकम् संस्कृत हिन्दी उड़िया भाषा संगमम्।
प्रथमम् वाक्यमस्ति, राष्ट्रिय प्रौद्योगिकी दिवसः प्रतिवर्षम् मई मासस्य एकादश दिवसे आयोज्यते। राष्ट्रीय प्रौद्योगिकी दिवस प्रत्येक वर्ष 11 मई को मनाया जाता है। उड़िया भाषा में, राष्ट्रीय प्रौद्योगिकी दिवस प्रतिवर्ष 11 मई रे पालन करा जायता है। द्वितीयम वाक्यम अस्ति, अयम दिवसः भारतस्य वैज्ञानिक उपलब्धीनां प्रतीकः अस्ति। यह दिवस भारत की वैज्ञानिक उपलब्धियों का प्रतीक है। उड़िया भाषा में, यही दिवस भारतरा वैज्ञानिक उपलब्धिरा प्रतीक अटे। तृतीयम वाक्यम अस्ति, अस्मिन् दिने वैज्ञानिकानां योगदानस्य सम्मानः क्रियते। इस दिन वैज्ञानिकों के योगदान का सम्मान किया जाता है। उड़िया भाषा में, यही दिन वैज्ञानिक मानंकर योगदानर सम्मान करा जायता है। चतुर्थम वाक्यम अस्ति, प्रौद्योगिकी राष्ट्रस्य विकासे महत्वपूर्णां भूमिकां निर्वहति। प्रौद्योगिकी देश के विकास में महत्वपूर्ण भूमिका को निभाती है। उड़िया भाषा में, प्रौद्योगिकी देशर विकासरे महत्वपूर्ण भूमिका ग्रहण करे। पंचमं वाक्यम अस्ति, अस्माभिः विज्ञानस्य प्रौद्योगिक्यस्य सदुपयोगः कर्तव्यः। हमें विज्ञान और तकनीक का सदुपयोग करना चाहिए। उड़िया भाषा में, आम्भे माने विज्ञान ओ प्रौद्योगिकी रा सदुपयोग करिबा उचित।
संस्कृत भाषाया सह उड़िया भाषायाः अयम् संयोगः स्यात् नूनम् आह्लादकरः ज्ञानवर्धकश्च। रसिकाः श्रोतारः, मधुरेण समापयेत् इति धिया कार्यक्रमान्ते शृणुमः श्रीमद् भागवत हृदय रूपेण वर्तमानं गोपी गीतम्। एतच्च सुमधुरेण स्वरेण प्रस्तोति अस्मदीया सहयोगिनी रिंकू जोशी।
जयति तेधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्रहि दयित दृश्यतां दिक्षु तावकास् त्वयि धृता सवस् त्वां विचिन्वति शरदुदाशये साधु जात सत् सरसि जोदर श्रीमुषादृशा सुरतनाथ ते शुल्कदासिका वरद निघ्नतो नेह किं वदः विषजलाप्यया द्वयाल राक्षसा द्वर्ष मारुता द्वैद्युतानलात् वृषमयात्मजा द्विश्वतो भया दृशभते वयम् रक्षिता मुहुः न खलु गोपिका नन्दनो भवा नखिल देहिना मन्तरात्मदृक् विखन सार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले विरचिता भयम् वृष्णि दुर्यते चरणमीयुषां संसृतेर्भयात् करसरोरुहं कान्तकामदं शिरसि देहिनः श्रीकरग्रहम्।
प्रिया श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्नास्ति। इमं कार्यक्रमम् उपसंहर्तुम् अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल संकेतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मङ्गलम्।